एषा रेडियो नेपालः सम्प्रति समाचारः श्रूयन्ताम् प्रवाचकः उपेन्द्र दाहालः। नेपाल कम्युनिष्ट पार्टी नेकपा दलस्य स्थायी समितेः उपवेशा ह्योऽप्याचलत्। उपवेशे प्रधानमन्त्रिणा दलस्य अध्यक्षेण च केपी शर्मा ओलिना सम्प्रत्येव मदन भण्डारी जन्मजयन्त्याः अवसरे आयोजिते कार्यक्रमे व्यक्तायाः अभिव्यक्तेः निर्वाचनायोगे नेकपा एमाले नाम्नः नवीन दलस्य पञ्जीकरणाय प्रदत्तस्य निवेदनस्य च विषययोः विमर्शनम् केन्द्रीभूतम् इति नेपाल कम्युनिष्ट पार्टी नेकपा दलस्य प्रचार विभागस्य उपप्रमुखः सूर्य थापा ज्ञापयत्। ह्यस्तनोपवेशे नेतारः योगेश भट्टराई, लीलामणि पोखरेलः, मातृका प्रसाद यादव, नन्दकुमार प्रसाई, पेशल कुमार खतिवड़ा च धारणाम प्राकटयन इति उपप्रमुख थापा ज्ञापयत। स्थायी समितेः अपर उपवेश अद्य पूर्वाह्नस्य एकादश वादने पुनर्वसति। तत्पूर्वं प्रधानमन्त्रिणा नेकपा दलस्य अध्यक्षेण च केपी शर्मा ओलिना दलस्य सञ्चल्यमाने स्थायी समितेः उपवेशे उत्पन्नस्य विवादस्य सम्बन्धे गतदिने प्रातः स्थायी समितेः सदस्यैश्च मन्त्रिभिः स्थायी समितेः सदस्यैश्च स विमृष्टमासीत्। प्रधानमन्त्रिणा दलस्य अध्यक्षेण च ओलिना दले उत्पन्नानां समस्यानां विषये विमृष्टम् अन्यैः नेतृभिश्च सहापि विमृश्यते इति च उक्तम् इति विमर्शने सहभागी स्थायी समितेः सदस्य पर्यटन मन्त्री च योगेश भट्टराई सामाजिक सञ्जालस्य माध्यमेन अज्ञापयत्। विमर्शने सहभागिभिः नेतृभिः कस्याञ्चित् अपि अवस्थायां दलैकतां रक्षितुम् अन्तर्विरोधस्य समाधानाय प्रयतितुम् इतिहासेन नेपाली जनतया च प्रदत्तस्य दायित्वस्य पूरणेन सह दलम् अतिरिक्तम् सुदृढम् एकताबद्धं च कारयितुं विश्वासस्य संकटं समाप्य हादभावनां विकसयितुं च प्रधानमन्त्रिणे परामृष्टमिति पर्यटन मन्त्रिणा भट्टराई इत्यनेन सामाजिक सञ्जाले उल्लिखितमस्ति। प्रधानमन्त्री केपी शर्मा ओली बांसवारी स्थिते हुतात्म गंगालाल राष्ट्रिय हृदय केन्द्रे ह्यो नियमितं स्वास्थ्य परीक्षणं कारयित्वा निवसं प्रत्यावृतो वर्तते। प्रधानमन्त्रिणः संचार परामर्शदातुः सूर्य थापा विदस्य अनुसारेण प्रधानमन्त्री ओली अत्यावश्यक परीक्षणं कारयित्वा निवासं प्रत्यावृतो वर्तते। संघीय संसदः सदनद्वये नैव प्रतिनिधिसभायाः सांसदस्य ज्ञानकुमारी छन्त्यालस्य निधनं प्रति शोकप्रस्तावः पारितीकृतो वर्तते। वर्तमानायाः प्रतिनिधिसभायाः सदस्या छन्त्यालः 70+ विक्रमार्दस्य संविधानसभायाः निर्वाचने बागलुङ जनपदा संविधानसभा सदस्य आसीत्। प्रतिनिधिसभायाः अपरोपवेशः आषाढस्य 22 दिवसे सोमवासरे दिवा एकवादने वस्ता। राष्ट्रियसभायाश्च अपरोपवेशः अद्य दिवा एकवादने वसति। नेपाली कांग्रेस दलस्य केन्द्रीय कार्य समितेः उपवेशेन सांसदस्य ज्ञानकुमारी छन्त्यालस्य निधनं प्रति दुःखम् अभिव्यज्य शोकप्रस्तावः पारितीकृतो वर्तते। प्रतिनिधिसभायाः सदस्यायाः छन्त्यालस्य ह्यः प्रातः बांसवारी वर्तिनी हुतात्म गंगालाल हृदय रोग केन्द्रे उपचारस्य क्रमे निधनं भूतम् आसीत्। दलसभापति शेरबहादुर देउवा सांसदस्य छन्त्यालस्य निधनेन दलेन एका निष्ठावती कुशला च महिला नेत्री आपिता ततो दलाय अपूरणीय क्षतिश्च प्राप्तेति निगद्य श्रद्धाञ्जलिम् आर्पयत। नेपाली कांग्रेस दलेन स्वर्गीयां छन्त्यालं प्रति सम्मानं प्रकटय्य अद्य दलस्य केन्द्रीय कार्यालयं पिधाय केन्द्रीय कार्यालये दलस्य ध्वजः अर्धम् अवनम्यते, कोऽपि औपचारिक कार्यक्रमश्च नायोज्यते इति ज्ञापितमस्ति। अत्रान्तरे कांग्रेस संसदीय दलेन प्रतिनिधिसभायाः सदस्यायाः दलस्य नेत्र्याश्च ज्ञानकुमारी छन्त्यालस्य निधनं प्रति दुःखं व्यक्तं वर्तते। कांग्रेस दलीय प्रमुख सचेतकेन बालकृष्ण खाँड इत्यनेन ह्यः शोक विज्ञप्तेर्माध्यमेन तस्याः आत्मनः चिरशान्तेः कामना विधाय शोकसन्तप्त परिवारजनेषु समवेदना प्रकटितास्ति। कोरोना विषाणोः संक्रमणात् गतदिने एव 1,268 जनाः संक्रमणमुक्ताः वर्तन्ते। स्वास्थ्य जनसंख्या मन्त्रालयस्य ह्यस्तने नियमित संचार संक्षेप कार्यक्रमे मन्त्रालयस्य प्रवक्ता प्राध्यापकः डाक्टर जागेश्वर गौतमः विभिन्नेषु स्थानेषु विद्यमानेभ्यः एकान्तवासेभ्यः गतदिने 1,268 संक्रमण स्वास्थ्यलाभ प्रापणेन सैव नेपाले संक्रमण मुक्तानाम अद्यावधि समग्र संख्या सहस्र चतुष्टयम् षट् पञ्चाशत अधिक षट् शतानि च प्राप्त स्थिति अज्ञापयत्। एवमेव गतदिने अतिरिक्तेषु द्व्यशीत्यधिक शत चतुष्टये जनेषु कोरोना संक्रमणस्य पुष्टे अनन्तरं नेपाले समग्रतः संक्रान्तानां जनानां संख्या चतुर्दश सहस्राणि षट् चत्वारिंशत् च प्राप्त अस्ति। एवं अस्यैव आषाढस्य चतुर्दशे दिवसे मृते अच्छाम जनपदस्य पञ्चचत्वारिंशत् वर्षीय पुरुषे संक्रमणस्य पुष्टे अनन्तरं नेपाले संक्रमणेन मृतानां जनानां संख्या त्रिंशत् प्राप्तास्ति। अफ्रीका महादेशीय राष्ट्रेभ्यः भारतस्य मार्गेण नेपालं प्रविष्टाः कृषेः नाशकाः सलवाः अद्यावधि नेपालस्य द्वापञ्चाशति जनपदेषु प्राप्ताः वर्तन्ते। सलवाः आसन्नाशीति लक्षेभ्यः नवतेः लक्षाणां संख्यायां वर्तन्ते इति कृषि पशुपक्षी विकास मन्त्रालयेन सलवानाम् अध्ययनाय संघटितस्य प्राविधिक कार्यदलस्य सदस्यः कीटविज्ञश्च समुद्रलाल जोशी ज्ञापयति। दाङ जनपदे मंगलवासरस्य मध्याह्ने प्रविष्टैः सलवैः जनपदस्य सदसो हेक्टर परिमित भूमेः कृष्यान्नादीनि विनाशितानि सन्ति। दाङ जनपदस्य कृषि ज्ञान केन्द्रस्यानुसारेण सलवैः गतसायं यावद् जनपदस्य दशसु एव पालिकासु कृष्यान्नादिषु हानिः प्राप्यमाणास्ति। केन्द्रस्य प्रमुखस्य सन्देशधितालस्य अनुसारेण विशेषतो मर्कटान्ने व्यञ्जनकृष्यां च सलवै हानिः प्रापिता वर्तते। एवमेव सलवकीटाः कर्णालीप्रदेशेऽपि प्राप्ताः सन्ति। सल्यान जनपदस्य विभिन्नेषु स्थानेषु सुरक्षित जनपदस्य लेकवेशी नगरपालिकाया तृतीयवडा क्षेत्रस्थिते दशरथपुरे च सलवानां स्वल्प समूह दृष्ट इति दशरथपुरस्थितं कृष्यनुसन्धानकेन्द्रं ज्ञापयति इति समाचारः।